अथ पञ्चदशोऽध्यायः पुरुषोत्तमयोगः। श्रीभगवानुवाच। ऊर्ध्वमूलमधःशाखम्
अश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि
यस्तं वेद स वेदवित्
अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः
गुणप्रवृद्धा विषयप्रवालाः
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके
न रूपमस्येह ततोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा
अश्वत्थमेनं सुविरूढमूलम्
असङ्गशस्त्रेण दृढेन चित्वा
ततः पदं तत्परिमार्गितव्यम्
यस्मिन् गतान निवर्तन्ति भूयः
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्ति प्रसृता पुराणि
निर्माणमोहाजितसङ्गदोषाः
अध्यात्मनित्या विनिवृत्तकामाः
द्वन्द्वैर्विमुक्ता सुखदुःखसंज्ञैः
गच्छन्त्यमूढा पदमव्ययं तत्
न तद्भासयते सूर्यः
न शशाङ्को न पावकः
यद्गत्वा न निवर्तन्ते
तद्दाम परमं मम
ममैवांशो जीवलोके
जीवभूतः सनातनः
मनः षष्ठानीन्द्रियाणि
प्रकृतिस्थानि कर्षति
शरीरं यदवाप्नोति
यच्चाप्युत्क्रामतीश्वरः
गृहीत्वैतानि संयाति
वायुर्गन्धानि वाशयात्
वायुर्गन्धानि वाश
श्रोत्रं चक्षुस्पर्शनं च
श्रोत्रं चक्षुस्पर्शनं च
रसनं घ्राणमेव च
रसनं घ्राणमेव च
अधिष्ठाय मनश्चायम्
अधिष्ठाय मनश्चायम्
विषयानुपसेवते
विषयानुपसेवते
उत्क्रामन्तं स्थितं वापि
उत्क्रामन्तं स्थितं वापि
भुञ्जानं वा गुणान्वितम्
भुञ्जानं वा गुणान्वितम्
विमूढानानुपश्यन्ति
विमूढानानुपश्यन्ति
पश्यन्ति ज्ञानचक्षुषः
पश्यन्ति ज्ञानचक्षुषः
यतन्तो योगिनश्चैनम्
यतन्तो योगिनश्चैनम्
पश्यन्त्यात्मन्यवस्थितम्
पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानः
यतन्तोऽप्यकृतात्मानः
नैनं पश्यन्त्यचेतसः
नैनं पश्यन्त्यचेतसः
यदादित्यगतं तेजः
यदादित्यगतं तेजः
जगद्भासयतेऽखिलम्
जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ
यच्चन्द्रमसि यच्चाग्नौ
तत्तेजो विद्धि मामकम्
तत्तेजो विद्धि मामकम्
गामाविश्य च भूतानि
गामाविश्य च भूतानि
धारयाम्यहमोजसा
धारयाम्यहमोजसा
पुष्णामि चौषधी सर्वाः
पुष्णामि चौषधी सर्वाः
सोमो भूत्वा रसात्मकः
सोमो भूत्वा रसात्मकः
अहं वैश्वानरो भूत्वा
अहं वैश्वानरो भूत्वा
प्राणिनां देहमाश्रितः
प्राणिनां देहमाश्रितः
प्राणापानसमायुक्तः
प्राणापानसमायुक्तः
पचाम्यन्नं चतुर्विधम्
पचाम्यन्नं चतुर्विधम्
सर्वस्य चाहं हृदि सन्निविष्टः
सर्वस्य चाहं हृदि सन्निविष्टः
मत्तस्मृतिर्ज्ञानमपोहनं च
मत्तस्मृतिर्ज्ञानमपोहनं च
वेदैश्च सर्वैरहमेव वेद्यः
वेदैश्च सर्वैरहमेव वेद्यः
वेदान्तकृद्वेदविदेव चाहम्
वेदान्तकृद्वेदविदेव चाहम्
द्वाविमौ पुरुषौ लोके
द्वाविमौ पुरुषौ लोके
क्षरश्चाक्षर एव च
क्षरश्चाक्षर एव च
क्षरः सर्वाणि भूतानि
क्षरः सर्वाणि भूतानि
कूटस्थोऽक्षर उच्यते
कूटस्थोऽक्षर उच्यते
उत्तमपुरुषस्त्वन्यः
उत्तमपुरुषस्त्वन्यः
परमात्मेत्युदाहृतः
परमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य
यो लोकत्रयमाविश्य
बिभर्तव्यय ईश्वरः
बिभर्तव्यय ईश्वरः
यस्माक्षरमतीतोऽहम्
यस्माक्षरमतीतोऽहम्
अक्षरादपि चोत्तमः
अक्षरादपि चोत्तमः
अतोऽस्मि लोके वेदे च प्रतितः पुरुषोत्तमः यो मामेवमसम्मूढः जानाति पुरुषोत्तमम् स सर्वविद्भजति माम् सर्वभावेन भारत इति गुह्यतमं शास्त्रम् इदमुक्तं मया नघ एतद्भुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः